इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। बिहार विधानसभायाः निर्वाचनम् अस्मिन् वर्षे द्वयोः चरणयोः क्रमशः नवम्बर मासस्य षड्दिनांके एकादश दिनांके च भविष्यति। सहैव मतगणना नवम्बर मासस्य चतुर्दश दिनांके भविष्यति। दुर्गापूजायां मूर्ति विसर्जन यात्रावधौ जातायां हिंस्र घटनानां अनन्तरं ओडिशायाः कटकनगरे श्वः प्रातः यावत् निषेधाज्ञा प्रवर्तिता अस्ति। अमेरिकायाः वैज्ञानिको मैरी ई ब्रुनको फ्रेड रामसडेलः च जापानस्य शिमोन साकागुची इत्यनेन सह परिधीय प्रतिरक्षा सहिष्णुता इत्यस्मिन् विषये तेषाम् अभूतपूर्व अन्वेषणमधिकृत्य अस्य वर्षस्य फिजियोलॉजी मेडिसिन इत्यस्य विषयस्य नोबेल पुरस्कारं प्राप्तवन्तौ। अपि च भारतेन विश्व पैरा एथलेटिक्स चैम्पियनशिप इत्यस्मिन् क्रीडा द्वन्द्वे षट् स्वर्ण पदकान् नव रजत पदकान् सप्त कांस्य पदकान् समेत्य द्वाविंशति पदकैः सह स्वकीयम् अभियानं सुसम्पन्नम्। अथ वार्ताः विस्तरेण। बिहार विधानसभायाः निर्वाचनम् अस्मिन् वर्षे द्वयोः चरणयोः क्रमशः नवम्बर मासस्य षड्दिनांके एकादश दिनांके च भविष्यति। सहैव मतगणना नवम्बर मासस्य चतुर्दश दिनांके भविष्यति। निर्वाचनायोगेन अद्य त्रिचत्वारिंशदुत्तर द्विशतं सदस्य भूताय बिहार विधानसभा निर्वाचनाय मतदान कार्यक्रमस्य घोषणा कृता अस्ति। निर्वाचन कार्यक्रमस्य घोषणया सह एव बिहारे आदर्शाचार संहिता प्रख्यापिता अस्ति। अद्य नवदिल्ल्यां वार्ताहरान् सम्बोधयन् मुख्य निर्वाचनायुक्तः ज्ञानेश कुमारः अकथयत् यत् राज्ये त्रिचत्वारिंशदुत्तर सप्तकोटि संख्याकेभ्यः मतदातृभ्यः द्वादशोत्तर सप्तशताधिक नवति सहस्र संख्याकानि मतदान केन्द्राणि निर्मितानि भविष्यन्ति।
बिहार के चुनाव दो फेजेस में होंगे। पहले फेज के डेट गजट नोटिफिकेशन 10 तारीख को आएगा, दूसरे का 13 को। लास्ट डेट ऑफ मेकिंग नॉमिनेशंस पहले फेज की 17 को होगी, दूसरे की 20 को। स्क्रूटनी 18 और 21, विड्रॉल की आखिरी तारीख 20 अक्टूबर और 23 अक्टूबर और डेट ऑफ पॉल 6 नवम्बर थर्सडे और दूसरा 11 नवम्बर ट्यूजडे। काउंटिंग 14 नवम्बर को होगी और पूरी चुनावी प्रक्रिया 16 नवम्बर तक समाप्त कर ली जाएगी।
सः प्रोक्तवान् यत् प्रथमचरणस्य मतदानाय अधिसूचना अस्य मासस्य दशमदिनांके प्रकाशिता भविष्यति। सहैव प्रत्याशिनः सप्तदशदिनांकं यावत् नामांकनं कर्तुं शक्यन्ते। द्वितीयचरणस्य निर्वाचनाय अधिसूचना अस्य मासस्य त्रयोदशदिनांके प्रकाशिता भविष्यति। विंशतिदिनांकं यावत् च प्रत्याशिनः नामांकनं विधातुं शक्नुवन्ति। मुख्य निर्वाचनायुक्तः अकथयत् यत् प्रथमवारं प्रत्येकस्मिन् निर्वाचनक्षेत्रे एकः सामान्य पर्यवेक्षकः प्रयोजयिष्यते, यः आयोगस्य संजयो भूत्वा कार्यं करिष्यति। श्रीकुमारः अकथयत् यत् निर्वाचनप्रक्रियायाः गहन निरीक्षणाय सर्वेषु मतदानकेन्द्रेषु वेबकास्टिंग इति एतत् आयोजयिष्यते। सः पुनः प्रोक्तवान् यत् जनपदाधिकारिणः आरक्षाधीक्षकाः च कीदृश्यः अपि हिंसा घटना न सोढुं निर्दिष्टाः सन्ति। सः इदमपि अकथयत् यत् आयोगः राज्ये पर्याप्त केन्द्रीय सशस्त्र आरक्षिबलानां सन्धानं करिष्यति। सहैव मादक पदार्थानां अनैतिक धनस्य च व्रजनाव्रजनं प्रति निरीक्षणमपि करिष्यति। दुर्गापूजायां मूर्ति विसर्जन यात्रावधौ जातानां हिंस्र घटनानां अनन्तरं ओडिशायाः कटकनगरे श्वः प्रातः यावत् निषेधाज्ञा प्रवर्तिता अस्ति। विधिव्यवस्थां सुचारुतया समारब्धुम् इंटरनेट इति अन्तर्जाल सेवाः अपि कठोर प्रतिबन्धैः पिनद्धाः सन्ति। वार्ताहरैः सह वार्तां कुर्वन् अतिरिक्त आरक्षि आयुक्तः नरसिंह भोला इत्यसौ अकथयत् यत् चिकित्सालय आपण ईधनादयः आपातकालीन सेवाः अतिरिच्य निषेधाज्ञायाः अवधौ अन्यानि सर्वाण्यपि व्यावसायिक प्रतिष्ठानानि पिनद्धानि भविष्यन्ति। अवधेयं यत् एषा हिंस्र घटना तदा समारब्धा यदा गत शुक्रवासरस्य रात्रौ केचन स्थानीय जनाः विसर्जनस्य यात्रावधौ उच्चसंगीतं विरुध्य आपत्तिं प्रकटितवन्तः। ओडिशायाः मुख्यमंत्री मोहन चरणमाझी कटकनगरस्य जनान् शान्त्यै सद्भावनायै च सम्प्रार्थितवान्। बिहारस्य मुख्यमंत्री नीतीश कुमारः अद्य पटना मेट्रो रेल सेवायाः प्रथमचरणस्य उद्घाटनं कृतवान्। षड्वर्षाणां दीर्घतमस्य अवधेः अनन्तरं पटनायां बहुप्रतीक्षिता मेट्रो रेलसेवा अन्ततः सकारात्मकरूपेण समारब्धास्ति। अवधेयं यत् अस्याः परियोजनायाः निर्माण कार्यं फरवरी मासस्य 19-2000 प्रधानमन्त्रिणा नरेन्द्र मोदिना समारब्धम्। राज्यस्य प्रथम मेट्रो रेलसेवायाः शुभारम्भेण सह एव पटना वासिनां प्रतीक्षा समयः अवसानम् अगच्छत्। पटना मेट्रो रेलसेवायाः अन्तर्गतम् अद्य अन्तराज्यीय बस टर्मिनल भूतनाथ स्टेशन इत्यनयोः मध्ये प्रायोरिटी कॉरिडोर इत्यस्य एलिवेटेड सेक्शन इत्यत्र प्रथमा मेट्रो रेलसेवा समारब्धा अस्ति। अन्येषु रेलस्थानकेषु रेलसेवाः आगामिषु चरणेषु समारप्स्यते। सहैव कार्यं द्रुतगत्या अग्रे वर्धते। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अमेरिकायाः वैज्ञानिको मैरी ई ब्रुनको, फ्रेड रामसडेलः च जापानस्य शिमोन साकागुची इत्यनेन सह परिधीय प्रतिरक्षा सहिष्णुता इत्यस्मिन् विषये तेषाम् अभूतपूर्व अन्वेषणम् अधिकृत्य अस्य वर्षस्य फिजियोलॉजी मेडिसिन इत्यस्य विषयस्य नोबेल पुरस्कारं प्राप्तवन्तौ। प्रतिरक्षा प्रणाली अस्माकं शरीरं विरुध्य आक्रमणं कुर्वद्भ्यः सहस्राधिकेभ्यः सूक्ष्मजीवेभ्यः कथम् अस्मान् रक्षति इति विषयमधिकृत्य वैज्ञानिकेभ्यः एषः पुरस्कारः प्रदत्तः अस्ति। नोबेलसमित्या अद्य स्वीडनस्य स्टॉकहोम इत्यत्र एकस्मिन् समारोहे घोषिताः त्रयोपि वैज्ञानिकाः नियामक टी कोशिकानाम् अभिज्ञानं कर्तुं सम्मानिताः। अनेन अन्वेषणेन स्वप्रतिरक्षित रोगेषु कर्करोगे अंग प्रत्यारोपणे च नवीनोपचाराणां मार्गं प्रशस्तं कृतमस्ति। 11 मिलियन स्वीडिश क्रोनर मितस्य अयं पुरस्कारः त्रिषु मध्ये समानरूपेण वितरिष्यते। ऋतु विज्ञान विभागेन अद्य जम्मू कश्मीर, उत्तराखण्ड, पंजाब, हरियाणा, दिल्ली, एनसीआर चेत्यादीनां क्षेत्राणां कुत्रचित् स्थलेषु भीषणतो अतिभीषणवृष्टेः अनुमानं प्रकटितमस्ति। नवदिल्ल्याः तन्निकटवर्तिषु क्षेत्रेषु च अद्य ओलावृष्टिः इत्यस्यापि सम्भावना अस्ति। आकाशवाण्या सह जाते विशिष्टे संवादे आईएमडी इत्यस्य वरिष्ठः वैज्ञानिकः डॉ आर के जेनामणि इत्यसौ अकथयत् यत् श्वः आरभ्य राष्ट्रिय राजधानी क्षेत्रे वृष्टेः गतिविधौ न्यूनता भविष्यति।
दिल्ली में अभी भी लाइट रेन जारी है, लेकिन आगे रेन का इंटेंसिटी बढ़ेगा और नाइट तक जो है लाइट टू मॉडरेट रेनफॉल होगा। उत्तर भारत का बात करें तो मेनली पश्चिम हिमालय का क्षेत्र में हमारा वार्निंग जो है वेरी हैवी रेन 6 अक्टूबर के लिए है, ऑरेंज कलर का वार्निंग है, और हैवी टू वेरी हैवी रेन जम्मू कश्मीर, हिमाचल प्रदेश, उत्तराखंड, पंजाब, हरियाणा के लिए मेनली है।
जयपुरस्य सवाई मानसिंह चिकित्सालये अग्निकाण्डस्य घटनायाः अन्वीक्षणाय चिकित्सा शिक्षायुक्तस्य अध्यक्षतायां 6 सदस्यानां उच्चस्तरीय समितेः ग्रन्थनं कृतमस्ति। ध्यानास्पदं वर्तते यत् अस्यां घटनायां 6 जनानां मृत्युः जाता आसीत्। यः रात्रौ द्वितीये भवनस्थे ट्रामा आईसीयू इत्यत्र अग्निसमुत्थापितः, यत्र 11 रुग्णाः चिकित्सारताः आसन्। ट्रॉमा सेंटर इत्यस्य प्रभारी डॉक्टर अनुराग धाखड़ अकथयत् यत् शॉर्ट सर्किट इत्यनेन कारणेन अग्निकाण्डम् अभवत्। तीव्रगत्या च अग्निप्रसरणेन विषाक्तवातिः निर्गता, सर्वत्र प्रसरिता च।
ट्रॉमा इश्यू में शॉर्ट सर्किट हुआ और शॉर्ट सर्किट की वजह से एकदम तेजी से आग लगने से वहाँ पर टॉक्सिक गैसेज और वो सब फैलने लगी, तो तुरंत ट्रॉमा सेंटर की टीम है, हमारे जो नर्सिंग ऑफिसर्स हैं, हमारे वार्ड बॉय, हम लोगों ने रेस्क्यू करा उनको और उनको दूसरी जगह पे शिफ्ट किया। 6 तो जो है उनको हम काफी एफर्ट्स के बाद बचा नहीं पाए, उसमें से टोटल 24 थे जो हमने से इवैक्यूएट किए थे, 11 ट्रॉमा इश्यूज और 13 बगल वाले इश्यूज।
प्रधानमंत्री नरेन्द्र मोदिना अस्याम दुर्घटनायां जातेषु मृत्युषु दुःख प्रकटितः अस्ति। एकस्मिन् सामाजिक संदेशे श्री मोदी अकथयत् यत् अनया घटनया तेन अत्यन्तं दुःखम् अनुभूतमस्ति। सहैव मृतकानां परिवारेभ्यः अपि प्रधानमन्त्रिणा स्वकीया संवेदना प्रकटिता अस्ति। राजस्थानस्य मुख्यमंत्री भजनलाल शर्मा व्रणितेभ्यः उचितं चिकित्सा सौविध्यं प्रदातुम् आश्वासनं प्रायच्छत्। भारतेन नवदिल्ल्याम् आयोजिते विश्वा पैरा एथलेटिक्स चैम्पियनशिप इत्यस्मिन् क्रीडा द्वन्द्वे 22 पदकैः सह स्वकीयम् अभियानं सुसम्पन्नम्। येषु 6 स्वर्णपदकानि, 9 रजतपदकानि, 7 कांस्यपदकानि च सम्मिलितानि सन्ति। इति वार्ताः।